नमः कमलवासिन्यै नारायणै नमो नमः कृष्णप्रियायै सारायै पद्मायै च नमो नमः पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः सर्वसंपत्स्वरूपायै सर्वदात्रै नमो नमः पद्मासनये पद्मिन्यै वैष्णव्यै च नमो नमः सुखदायै मोक्षदायै सिद्धिदायै नमो नमः हरिभक्तिं प्रदायिन्यै च हर्षदायै नमो नमः कृष्णवक्षस्थितायै च कृष्णिषायै नमो नमः कृष्णशोभास्वरूपायै पद्मायै च नमो नमः सम्पत्यधिष्ठातृदेव्यै च महादेव्यै नमो नमः शस्याधिष्ठातृदेव्यै च शस्यायै च नमो नमः नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नमः वैकुण्ठेया महालक्ष्मी लक्ष्मीर्क्षीरोदसागरे स्वर्गलक्ष्मीरिन्दग्रहे राजलक्ष्मीर्नृपालये गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता सुरभी सा गवां माता दक्षिणायज्ञकामिनी अदितिर्देव माता त्वं कमला कमलालय स्वाहा त्वं च हविर्दाने काव्यदाने स्वधा स्मृता त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा शुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा क्रोधहिंसावर्जिता च वरदा च शुभानना परमार्थप्रदा त्वं च हरिदास्यप्रदा परा त्वया विना जगत्सर्वे भस्मीभूतं मसारकं जीवन्मृतं च विश्वं च शवतुल्यं त्वया विना सर्वेषां च परा माता सर्वबान्धवरूपिणी त्वया विना न सम्भाप्यो बान्धवैर्बान्धवः सदा त्वया हीनो बन्धुहीनस्त्वया युक्तः स बान्धवः धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी तथा त्वं सर्वदा माता सर्वेषां सर्वविश्वता मातृहीनस्तनत्यक्तः स चेज्जीवति दैवतः त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितं सुप्रसन्नस्वरूपा त्वं प्रसन्ना भवाम्बिके वैरग्रस्तं च विषयं देहि मह्यं सनातनी वयं यावत् तत्त्वयाहिना बन्धुहीनश्च भिक्षुकः सर्वसम्पद्विहीनाश्च तावदेव हरिप्रिये राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरी कीर्ति देहि धनं देहि यशो मह्यं च देहि वै कामं देहि मतिं देहि भोगान् देहि हरिप्रिये ज्ञानं देहि च धर्म च सर्वसौभाग्यमित्सितं प्रभावं च प्रतापं च सर्वाधिकारमेव च जयं पराक्रमं युद्धे परं ऐश्वर्यमेव च इत्युक्त्वा तु महेन्द्रश्च सर्वैः सुरगणैः सह प्राणानां साश्रुनेत्रो मूर्धना चैव पुनः पुनः ब्रह्मा च शङ्करश्चैव शेषो धर्मश्च केशवः ययुदेवाश्च सन्तुष्टः स्वं स्वं स्थानश्च नारद देवी ययौ हरे क्रोडं दृष्टाक्षिरोदशायिन ययतुस्तौ स्वस्वगृहं ब्रह्मोशानौ च नारद दत्त्वा शुभाशिषं तौ च देवेभ्य प्रीतिपूर्वकम् इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः कुबेरतुल्यः स भवेत् राजराजेश्वरो महान् सिद्धस्तोत्रं यदि पठे सोऽपि कल्पतरुन्नरः पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणां सिद्धिस्तोत्रं यदि पठेन्मास्मेकं च संयतः महासुखी च राजेन्द्रो भविष्यति न संशयः इति शुभम्।